एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। अद्यता सार्वजनिक यातायातम् कार्यालयाः आपणाः उत्पादनशालाश्च नियमितरूपेण सञ्चाल्यन्ते। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः आर्थिक सामाजिक प्रभावम् न्यूनीकृत्य जनजीवनम् सामान्यम् विधातुम् अद्यतः यातायातम् विमानोड्डयनम् आपणाः उत्पादनशालाः कार्यालयाश्च नियमितरूपेण सञ्चाल्यन्ते इत्यतः स्वास्थ्य सुरक्षायाः मापदण्डम् पालयितुम् सर्वान् अनुरुणात्। प्रवक्ता डा गौतमः निषेधाज्ञा निवारिता सत्यपि काष्ठमण्डपोपत्यकया सहितेषु सघनवसतियुतेषु स्थानेषु संक्रमणस्य संकटस्य विद्यमानत्वात् सार्वजनिकस्थलेषु यातायात साधनेषु कार्यालयेषु च स्वास्थ्य सुरक्षायाः मापदण्डम् पालयितुम् सर्वान् अनुरुणात्। ह्यः काष्ठमण्डपोपत्यकायाम् सप्तशतेन सप्तत्रिंशता च जनै सह अतिरिक्तेषु सहस्रे पञ्चशते ऊनचत्वारिंशति च जनेषु कोरोना संक्रमणम् पुष्टीभूतमस्तीति स्वास्थ्य मन्त्रालयेन ज्ञापितम् वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डा गौतमः ह्यः आराष्टम् दशसहस्रेषु चतुःशते चतुर्नवत्यां च जनेषु रियल टाइम पीसीआर विधिना विहितेन परीक्षणेन काष्ठमण्डपे द्वापञ्चाशद् अधिक षड्शते भक्तपुरे पञ्चविंशत्या ललितपुरे षष्ट्या च जनै सह सहस्रे पञ्चशते ऊनचत्वारिंशति च जनेषु संक्रमणम् पुष्टीभूतमस्तीति समसूचयत्। एतदनुसारेण अधुनावधि नेपाले संक्रान्तानां जनानां समग्र संख्या अष्टपञ्चाशत् सहस्राणि शतत्रयम् सप्तविंशतिश्च प्राप्तेति प्रवक्ता डा गौतमः अगदत्। कोरोना संक्रमणस्य कारणेन ह्य चत्वारः पुरूषाः चतस्रो महिलाश्चेति कृत्वा अष्टौ जना अम्रियन्त इति प्रवक्ता डा गौतमः ज्ञापितवान्। सम्प्रति संक्रमणेन मृतानां जनानां समग्र संख्या शतत्रयम् उनाशीतिश्च प्राप्ता वर्तते। ह्य अतिरिक्ता सहस्रम् अष्टषष्टिश्च जनाः संक्रमणात् मुक्ताश्च सन्ति। इदानीं संक्रमणमुक्तानां जनानां संख्या एकचत्वारिंशत् सहस्राणि सप्तशतं षड् च प्राप्तास्ति। मनश्चिकित्सकः डा सुदर्शन प्रधानः कोरोना संक्रमणस्य कारणेन जनमानसे उत्पन्नानां भयचिन्ता प्रवृत्ति समस्यानां न्यूनीकरणाय योगध्यानाभ्याम् सह यथारुचि कार्येषु सक्रियाः भवितुम् परामृशत। डा प्रधान संक्रमण संकटस्य भयेन इदानीं व्यक्तिषु एकस्यैव कार्यस्य भूयो भूयो द्विरावर्तनम् एकपक्षे केन्द्रीभवनम् चेति समस्याः वर्धमानाः सन्तीति ज्ञापयन् एतादृशेषु लक्षणेषु चिराय दृष्टेषु सत्सु उपचाराय परामर्श ग्रहणाय च मानसिक रोग विशेषज्ञम् गन्तुम् परामृशत्। काष्ठमण्डप जनपद प्रशासन कार्यालयेन स्वास्थ्य मापदण्डान् पूर्णतः पालयितुम् साधारणजनाः अनुरुद्धाः वर्तन्ते। काष्ठमण्डपे सञ्चाल्यमानानि सार्वजनिकानि नैजानि च यातायात साधनानि नेपाल सर्वकारेण निर्धारितान् मापदण्डान् अनिवार्यतया पालयित्वा सम विषम संख्या प्रणाल्याः अनुसारेण सञ्चालयितुम् प्रशासनेन सर्वे अनुरुद्धाः सन्ति। अत्यावश्यक सेवा प्रदायक कार्यालयेषु गमनागमने वस्तुवाहक यानेषु च सम विषम संख्या प्रणाली न क्रियान्विता भवतीति प्रशासनेन ह्य सूचनां प्रकाश्य स्पष्टीकृतं वर्तते। प्रशासनेन सार्वजनिक क्षेत्रेषु सम्मर्दं मेलां यात्रां महोत्सवं भोजनायोजनञ्च सञ्चालयितुं तथैव धार्मिक क्षेत्रेषु दैनिक नित्य पूजया विना अन्यान् गतिविधीन् न कारयितुम् अधिक सम्मर्द जनकान् उद्योग व्यापार व्यवसायाञ्च सञ्चालयितुं निषिद्धं वर्तते। सिराह जनपद कारागारे पञ्चशते सप्तसु च कारावासी जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। कारागारे स्थितानाम् पञ्चशतस्य नवनवतिश्च जनानाम् विहितेन पीसीआर परीक्षणेन पञ्चशते सप्तसु च जनेषु कोरोना संक्रमणम् पुष्टीभूतम् अस्तीति सिराह जनपदस्य प्रमुख जनपदाधिकारी प्रदीप राज कणेलः अज्ञापयत्। अपुष्ट संक्रान्तानाम् द्वानवतेः जनानाम् पृथक् प्रकोष्ठे स्थापयित्वा व्यवस्थापनस्य कार्यम् विधीयमानम् अस्तीति प्रमुख जनपदाधिकारी कणेलः अज्ञापयत्। सर्वोच्च न्यायालयेन पूर्व प्रधान न्यायाधीशस्य अनिरुद्ध प्रसाद सिंहस्य निधने अद्य देशस्य न्यायालयेषु अवकाशम् दातुम् निर्णीतम् वर्तते इति समाचारः।